इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी प्रधानमन्त्री नरेन्द्रमोदी ह्यः सायम् तेलंगानायाः निजामाबादस्थले 8,000 कोट्यधिकानां रूप्यकाणां विकास परियोजनानां आधारशिलां स्थापितवान् सहैव राष्ट्राय समर्पितवान् प्रधानमन्त्रिणा अत्रावसरे मनोहराबाद सिद्दीपेटस्थलं संयोजयितुं नवीना रेलपट्टिकाः अथ धर्माबाद मनोहराबादयोः महबूबनगर कुरनूलयोः च मध्ये वैद्युतीय परियोजनाः समेत्य अनेकाः रेलपरियोजनाः राष्ट्राय समर्पिताः असौ पेद्दापल्ली जनपदे राष्ट्रिय ताप विद्युत निगमस्य तेलंगाना ताप विद्युत परियोजनायाः प्रथमचरणस्य प्रथमः 800 मेगावाट परिमितं प्रभागं राष्ट्राय समर्पितवान् विद्युत संयन्त्रेण उत्पादितस्य 80% विद्युतस्य प्रयोगः राज्ये एव करिष्यते अनेन प्रयोगेण उत्तर दक्षिणीय सम्पर्क सौविध्येषु संशोधनं भविष्यति अवसरेऽस्मिन् प्रधानमन्त्रिणा 20 जनपद मुख्यालयेषु प्रधानमन्त्री आयुष्मान भारत स्वास्थ्य अवसंरचना अभियानस्य अन्तर्गतं 50 शयनासन युतस्य गभीरोपचार प्रभागस्यापि आधारशिलां स्थापितवान् इतः पूर्वं प्रधानमन्त्रिणा छत्तीसगढस्य आदिवासी बस्तर संभागस्य मुख्यालये जगदलपुरी 27,000 कोटि रूप्यकाणां विकास परियोजनाः राष्ट्राय समर्पिताः प्रधानमन्त्री प्रावोचत् यत् विकसित भारतस्य स्वप्नः तदा पूर्णो भविष्यति यदा प्रत्येक राज्यस्य जनपदस्य ग्रामस्य च विकासो भविष्यति केन्द्र प्रशासनेन नेशनल लिबरेशन फ्रंट ऑफ त्रिपुराम ऑल त्रिपुरा टाइगर फोर्स इत्येतं समेत्य तेषां समूहान् विधिकेतर गतिविधि अधिनियमस्यान्तर्गतं विधिकेतर संघः उद्घोषितः गृहमन्त्रालयेन एतेषु संघटनेषु 5 वर्षाणि यावत् प्रतिबन्धः प्रख्यापितः गृहमन्त्रालयेन ह्यः एका अधिसूचना प्रख्यापिता प्रोक्तं च यत् प्रशासनस्य विचारो वर्तते यत् एतानि विधिकेतर संघटनानि भारतस्य संप्रभुतायै अखण्डतायै च हानिप्रदानि सन्ति एतानि संघटनानि विध्वंसक हिंसक गतिविधिषु संलग्नानि अथ च स्वीयोद्देश्यं प्राप्तुं जनानां मध्ये आतंकवादं प्रसारयन्ति एतदर्थं प्रतिबन्धः आवश्यको वर्तते निर्वाचनायोगेन ह्यः तेलंगाना विधानसभा निर्वाचनस्य सज्जतायै विभिन्नैः राजनीतिकदलैः उपवेशनं विहितम् मुख्य निर्वाचनायुक्तस्य राजीव कुमारस्य नेतृत्वे दलायोगेन राजनैतिक दलानां विषयेषु विचारः कृतः एतेषु राजनैतिक दलेषु भारतीय जनता पार्टी कांग्रेस भारत राष्ट्र समिति आम आदमी पार्टी मार्क्सवादी कम्युनिस्ट पार्टी बहुजन समाज पार्टी इत्यादीनि दलानि सम्मिलितानि अभवन् षड् राष्ट्रिय दलानां चत्वारि क्षेत्रीय दलानां च प्रतिनिधिमण्डलैः पृथक्तया निर्वाचनायोगेन सह मेलनं कृतम् निर्वाचनायोगः अद्य आरक्षि अधीक्षकैः जनपदाधिकारिभिः सम मेलनं करिष्यति ऋतु विज्ञान विभागेन आगामिषु त्रिदिवसेषु बिहार झारखण्ड पश्चिमबंग सिक्किम उत्तरी ओडिशा जनपदेषु अतिवृष्टेः अनुमानं प्रख्यापितम् ऋतुविभागेन संसूचितं यत् देशस्य पूर्वोत्तरीय भागेषु 4 दिनं यावत् अतिवृष्टिं भविष्यति सोनभद्र जनपदे सर्वाधिका 16 सेंटीमीटर मिता वृष्टि समाकलिता तिरुवनन्तपुर जनपदे नारंगवारणिकी संचेतना कोल्लम पत्तनतिट्ठा अल्लापजा जनपदेषु पीतवारणिकी संचेतना प्रसारिता चीनस्य हांगचाओ नगरे एशियाई क्रीडायाः 10मे दिवसे भारतेन 2 स्वर्णपदकं 2 रजतपदकं 5 कांस्यपदकानि च आहत्य 69 पदकानि ह्यः अधिगृहीतानि इति वार्ताः